दक्षो विरिञ्च तनयोतभास्तनूजाम् लब्ध्वा प्रसूतिमिह षोडश चापकन्याः धर्मे त्रयोदश ददौ पितृषु स्वदाम् च स्वाहाम् हवेद्भुजि सतिम् गिरिशे त्वदंशे मूर्तिर्हि धर्मगृहिणी शुशुवेः भवन्तौ नारायणौ नरसकौ महितानुभावौ यज्जन्मनि प्रमुदिता कृततुव्यघोषाः पुष्पोत्तरान् प्रववृषु मुनुः सुरौ गाः दैत्यम् सहस्रकवच कवचैः परीतम् सहस्रवत्सर तपः समराभिलव्यैः पर्याय निर्मित तपः समरौ भवन्तौ शिष्टैक कङ्कट ममु न्यहताम् सलीलम् अन्वाचरन् उपदिशन् अपि मोक्ष धर्मौ त्वौ भ्रातृमान् बलरिका श्रम मध्यमास्तिः शक्रोत ते शम तपो बल निःसहात्मा दिव्याङ्गना परिवृतम् प्रजिघाय मारौ कामो वसन्तमलया निलबन्धुशाली कान्तः कटाक्ष विशिके विकसद्विलासैः विद्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वाम् भीतस्त्वयात जगदे विदुहासभाजाम् ीतालमङ्कज वसन्त सुराङ्गना वो मन्मानसम् त्विषजुषद्वमिति ब्रुवाणः त्वौ विस्मयेन परितस्तुवतामतैषाम् प्रादर्शय स्वपरिचारक कातराक्षिः सम्मोहनाय मिलित मदनादयस्ते त्वद्दाशिका परिमलै किल मोहमापुः दत्ताम् त्वया च जगृहुस्त्रपयैव सर्वस्वर्वासि गर्वशमनीम् पुनरुर्वशीम् ताम् दृष्टोर्वशीम् तव कथाम् च निशम्य चक्रः पर्याकुलो जनि भव महिमावमश्यत् एवम् प्रशान्तरमणीयतरावतारा त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव दक्षस्तु धातुरतिलालनया रजोऽन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् येन व्यरुन्दसभवत्तनुमेव सर्वम् यज्ञे च वैरपि शुणे स्वसुताम् यमानीत् उद्देशमर्दितमखः स तु कृद्धशीर्षो देवप्रसादितहरादत लब्धजीवस त्वत्पूरितक्रतुवरः पुनरापशान्त्युम् स त्वम् प्रशान्तिकर पाहि मरुत्पुरेश